पवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीरामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ निघृष्वैरसमायुधैः कालैर्हरित्वमापन्नैः इन्द्रायाहि सहस्रयुक अग्निर्विभ्राष्टिवसनः वायुश्वेतसि कद्रुकः संवत्सरो विषुवर्णैः नित्यास्तेऽनुचरास्तव सुब्रह्मण्योगुम् सुब्रह्मण्योगुम् सुब्रह्मण्यो निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य सर्वलिङ्गग्स्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वमाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमदनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्यो तघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते असुरुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईशान सर्वविद्यानाम् ईश्वर सर्वभूतानाम् ब्र ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे अस्तु सदाशिवो। नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतय उमापतये पशुपतये नमो नमः। जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः। स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः। तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवी गुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः। अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गानि विश्वा। पूष्ट पृथ्वी बहुला न उर्वी भवातोकायतनयाय शय्योः। विश्वानि नो दुर्गः जातवेदः सिन्धुन्ननाव दुरितातिपर्षि। अग्ने अत्रिवन्मनसा गृह्णानोऽस्माकम् बोध्यभिता तनूनाम्। पृतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेम परमात् सदस्तात्। स नः पर्षदति दुर्गानि विश्वाक्षामद्देवो अतिदुरितात्यग्निः। प्रत्नोषि कमेण्यो अध्वरेषु सनाचहो तानव्यश्च सत्सी। स्वाञ्चाग्ने तनुवम् पिप्रयस्वास्मभ्यम् च सौभगमायजस्व। गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरणु सञ्चरेम। नाकस्य पृष्ठमभिसंवसानो वैष्णवीम् लोक इह मादयन्ताम्। कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात्। यश्चन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योऽध्यमृतात् सम्बभूव। समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम्। शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा। कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः। श्रुतम् मे गोपाय ॐ शान्ति शान्ति शान्तिः। मेधा देवी जुषमाना न आगात् विश्वाची भद्रा सुमनस्यमाना। त्वया जुष्टानुदमाना दुरुक्तान् बृहद्वरेम विदते सुवीराः। त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गत श्रीरुतत्वया। त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे। मेधाम् इन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विनावुभावा दत्ताम् पुष्करस्रजा अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः दैवी मेधा सरस्वती सामा मेधा सुरभिर्जुषता गस्वाहा हामा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ऊर्जस्वती पयसा पिन्वमाना सामा मेधा सुप्रतीका जुषन्ता मयि मेधा मयि व्रजा मयि अग्निर्तेजो दधातु मयि मेधा मयि प्रजा मयीन्द्र इन्द्रियम् ददातु मयि मेधा मयि प्रजा मयि सूर्यो भ्राजो ददातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् योपाम् पुष्पम् वेद पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपाम् पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो अग्नेरायतनम् वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति यो मुष्यतपत आयतनम् वेद आयतनवान् भवति आपो वा अमुष्यतपत आयतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति य चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणाम् आयतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवम् वेद योऽसुनावम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति राजाधिराजाय प्रसह्य साहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति।